तथापि न निरर्गलं चरितुमीशते ज्ञानिनां तदायतनमेव सा किल निरर्गला व्याप्रतिः अकामकृतकर्म तन्मतं कारणं ज्ञानिनां द्वयं न हि विरोध्यते किमु करोति जानाति च जा।